एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। जलविप्लवी भूस्खलने च निमज्य अधुनावधि आराश्रम सप्तत्यधिकैक शतम् जनाः मृताः सन्ति। आराश्रम द्वाचत्वारिंशत् जनाः विलुप्ताः सन्ति। घटनायाम् एकादशोत्तरैक शतम् जनाः आहताश्च वर्तन्ते इति गृह मन्त्रालयस्य प्रवक्ता ऋषिराम तिवारी सूचयति। विलुप्तानाम् जनानाम् सम्पूर्ण स्रोत साधनै अन्वेषणम् विधीयमानमस्तीति गृह मन्त्रालयेन ज्ञापितम् वर्तते। कार्यवाहक प्रधानमन्त्रिणः प्रकाशमान सिंहस्य आह्वाने ह्यः सिंहप्रासादे उपविष्टे सर्वदलीयोपवेशे विभिन्न राजनैतिक दलानां नेतृभिः विपदः समये सर्वैः मिलित्वा प्रभावितानां जनानां उद्धार सहयोग वितरण पुनस्थापनानां कार्येषु प्रवर्तनायै प्रतिबद्धता व्यक्ता अस्ति। विपदः समये सत्तापक्षं प्रतिपक्षं च नोक्त्वा विगतकालिक विपत्सु इव राजनैतिक दलैस्सह देशस्य विभिन्न सामाजिक संघ संस्थासु नागरिक समाजे च मिलित्वा अग्रे वर्धितेषु सत्सु सर्वविध संकटः प्रतिकर्तुं शक्यन्ते इत्यतः सम्प्रत्यपि आत्मनां तदनुसारेण अग्रे वर्धितुं तत्परता अस्तीति उपवेशे नेतृभिः प्रतिबद्धता व्यक्तेति उपवेशस्य पश्चात् सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अज्ञापयत्। सर्वदलीयोपवेशेन जनपद विपद व्यवस्थापन समितेः जनपद यातायात समितेः अन्य सम्बद्ध संस्थानां च समन्वयेन जलविप्लव भूस्खलनानां कारणेन असहायावस्थां प्राप्तान् यात्रिणः सुरक्षित गन्तव्यस्थानानि प्रापयितुम् अवरूद्ध मार्गाणां यथाशीघ्रं संचालनाय भौतिक पूर्वाधार यातायात मन्त्रालयेन तत्परतापूर्वकं प्रवर्तयितुं च निर्णीतम् इति संचार मन्त्री गुरूङ असूचयत्। एवमेव सर्वदलीयोपवेशेन जलविप्लव भूस्खलनानां कारणेन हापित गृहवासानां जनानां कृते राष्ट्रिय विपद व्यवस्थापन प्राधिकरणस्य समन्वयेन नगरीय विकास मन्त्रालयेन उचितावासस्य व्यवस्थायाः निर्णयेन सह कतिसूचित स्थानेषु अवरुद्धायाः विद्युतापूर्तेः संचारस्य च सेवायाः पेयजल प्रभृतीनाम् अन्यविध सेवानां च सम्बद्ध पक्षै तत्कालं सुचारू सञ्चालनाय प्रदानाय च प्रयत्नायै निर्णीतं वर्तते। सर्वदलीयोपवेशे नेपाली कांग्रेस दलं नेकपा एमाले नेकपा माओवादी केन्द्रम राष्ट्रिय स्वतन्त्र दलम राष्ट्रिय प्रजातन्त्र दलम जनता समाजवादी दलम नेकपा एकीकृत समाजवादी दलम लोकतान्त्रिक समाजवादी दलम चेति देशस्य प्रमुख राजनीतिक दलानां प्रमुखाणां नेतृणां च उपस्थिति रासीत्। नेपाली कांग्रेस दलेन अविरल वृष्ट्या कारणेन दुरापन्नेन जलविप्लवेन भूस्खलनेन च पीडितेभ्य नागरिकेभ्य तत्कालमेव उद्धारं सहयोगं च विधातुं सर्वकारः अनुरुद्धोऽस्ति। नेपाली कांग्रेस दलस्य कार्यसम्पादन समितेः स्तनोपवेशेन जलविप्लव भूस्खलनाभ्यां विलुप्तानां नागरिकाणां तीव्रतया अन्वेषणाय आहतानां निःशुल्कम् उपचाराय च सर्वकारः अनुरुद्धोऽस्तीति दलस्य प्रवक्ता डाक्टर प्रकाशरण महत अज्ञापयत्। एवमेव उपवेशेन जलविप्लव भूस्खलनयोः कारणेन मार्गेषु संकटे पतितानां जनानां उद्धारं सहयोग कार्यं च तीव्रगत्या सम्पादयितुम् अनुरुद्धमस्तीति प्रवक्ता डाक्टर महत असूचयत्। नेपाली कांग्रेस दलस्य कार्यसम्पादन समितेः उपवेशेन दलस्य विभिन्नेषु संघटनेषु आबद्धान् नेतृन् कार्यकर्तृञ्च पीडितानां नागरिकाणाम् उद्धाराय सहयोगाय च सक्रियतां दर्शयितुं निर्देष्टुं निर्णीतं वर्तते। नेकपा एमाले दलेन अविरल वृष्ट्या कारणेन जलविप्लव भूस्खलनाभ्यां पीडितानां नागरिकाणाम् उद्धाराय सहयोगाय च आहतानां जनानाम् उपचाराय च दलं परिचालयितुं निर्णीतमस्ति। नेकपा एमाले दलस्य विपद व्यवस्थापन स्वयंसेवक विभागस्य ह्य उपविष्टेन उपवेशेन आगामि त्रिषु दिवसेषु दलस्य कार्यं त्यक्त्वा विपदा जातायाः क्षतेः विवरणस्य संकलनं कर्तुं विस्थापितेभ्यो जनेभ्य सहयोगं विधातुम् आहतेभ्यो जनेभ्य उपचारं सहयोगं च कर्तुं च निर्णीतमस्तीति नेकपा एमाले दलस्य केन्द्रीय कार्यालयस्य सचिवः डाक्टर भीष्म अधिकारी अज्ञापयत्। भौतिक पूर्वाधार मन्त्रालयेन वृष्ट्या कारणेन क्षतेः प्राप्ताः मार्गाः यथाशीघ्रं सञ्चालनाय सम्बद्धान् निकायान् निर्दिष्टमस्ति। मन्त्रालयस्य प्रवक्ता सुनील बाबु झकालः स्वान्तर्गतानां निकायानां संयन्त्र साधन स्रोतांसि प्रयुज्य अवरुद्ध मार्गं यथाशीघ्रं सञ्चालयितुं विधीयमानम् अस्तीति सूचयति। इति समाचारः।